स्वादुष्किलायम् मधूमाम् उदायम् तीव्रः किलायम् रसवाम् उदायम् उदोम् वा अस्यवान् समिन्द्रम् न कश्चन सहसाभयेषु अयम् स्वादुरिहमधिष्ठासरस्येन्द्रो वृत्रहत्ये ममाद ऋणियच्छौत्ना संवरस्य विनपतिम् न वाच देह्यो ओहन् अयम् मे भीत उदीयति वाच मधर्मीरामो सतीवाजीगः अयम् षडुर्वीरीतधीरोजाभ्यो भुवनम् कच्छारे अयम् स योपरिमाणम् पृथिव्या वष्माणम् दिवो अरेणोदयम् सः अजम् वीयूरम् दिशुषु प्रवत्सु सोमो राधारोर्वा अन्तरिक्षम् अजम् वीधच्चित्रदिशीकवर्णः शुक्रसत्मना मुरसामणीके अयम् महान्महता स्कम्भनेणोद्यामस्तभ्राद्वृषभो मरुत्वान् दृषद्दीपकलशे सोममिन्द्रवृत्रः सूरदमदेवसूनाम् माध्यम् दिने सवनामृषस्वरजिष्ठानो रजिमस्मासु देहि इन्द्रप्रणः पुरजेतेव पश्य प्रणो नय प्रधानम् वस्योच्छ भवासु पारो अरि पारजो न भवासु नीति ऋतवामनीतिः उरुन्नो लोकमनूनेषु विद्वान् सर्वज्योतिरभयम् स्वस्ति निश्वाद इन्द्रश्च वीरस्य बाहूपस्थेयामशरणा बृहन्ताः वरिष्ठेन इन्द्रबन्धुवे धावयिष्ठयोः सदा भन्नस्व योरा इषमावक्षीराम् वरिष्ठाम् मानस्तारीन्मघवन्राजो अर्यः इन्द्रमृणमह्यम् जीवातो मिच्छचोदयधियमय सोमधाराम् यत्किञ्चाहम् त्वायुविदम् वदामि तद्यूरस्व कृधिमा देवमन्तम् त्रातारमिन्द्रमनिता रमिन्द्रम् भवे भवे सुभवम् सुरमिन्द्रम् वयामि शक्रम् पूर्वभूतमिन्द्रम् स्वस्ति नो मघवाधात्विन्द्राः इन्द्रः सुत्रामास्वभाङ्कवो विश्वमलेको भवतु विश्ववेदाः बाधतान् त्वेषो अभयम् कृणोतु सुवीर्यस्य वदयस्याम तस्य भजम् सुमतौ यज्ञियस्यापि भद्रेधौ मनसे स्याम स्वभाङ्गिन्द्रो अस्मे आराचिद्वेषः स न तर्यूयोतु अपत्ये इन्द्रप्रवतो नोर्मिर्गिरो ब्रह्माणि नियुतो धवन्ते गुरूनराधस्रवना गुरोण्यपो गावज्रञ्जुवशेषमिन्दूरे कयीम् सवत्कप्रेणा क्रोय जाते यदुग्रमिन्मघवा विश्वावेद् पारादिवप्रान्यमन्यम् कृणोति पूर्वमपरम् सचीभिः शृण्डे वीरमुग्रमुग्रन्दमायन्नन्यमन्यमदिने नीयमानः एधमानद्विरुभयः स राजाश्रूयते विषयिन्द्रा मनुष्यान् परा पूर्वेणाम् सख्यावेणक्ति विदत्तूरान अपरेभिरेति अनानुभूतिरमधोन्बालः पूर्वेरिन्द्रः शरदस्तर्दरीति रूपम् रूपम् प्रतिरूपोपभूपदस्य रूपम् प्रतिलक्षणाय इन्द्रो वाजाभिः पुरुरूपजीयते युक्ताह्यस्य हरयः सदादश जानो हरितारथे भूरित्वक्षे हराजति को विश्वाद्दृढतः पक्ष आसत उदासीनेषु सूरिषु अगव्योतिक्षेत्रमायन्मदेव भुर्वी सति भूमिरम्भूरणाभूत् बृहस्पते प्रतीकृत्सा गविष्ठा विच्छासते चरित्रैन्द्रवन्धाम् दिवे दिवे सदृशीरण्यमर्थम् कृष्णासे धतपसद्मनोजाः అయం దాసేజవస్నయం దోదవ్రాజేభర్జినం సంవారం చ అస్తోక ఇంద్రరాజస్తేంద్రదశకోశీర్దశాజినోదాజిగ్వశ్చరాధస్వాంభరం వసు ప్రత్యగ్రహీష్మ దశాస్వాందశకోశాందశవస్త్రాధీభోజన దశో హిరణ్యపిండాన్ దివో దాసాదశాలిషం దశరసాన్ వృష్టిమతః సరంగా అథర్వభ్యః అశ్వతః పాజవేదాన్ మహిరాధో విశ్వజన్యం దదానాన్ భరద్వాజాన్ సాంజయో అభ్యాయష్ట వనస్పతేభిర్భవం గోభిభూయాస్మత్సగా ప్రచరణస్వీరాః గోభిః సన్నద్ధో అసి వీరయస్వాస్థాతే జయతు జేత్వారి దివస్పృథివ్యాః పర్యోజవుద్భృతం వనస్పతిభ్యః పర్యాభృతం సహ అపామోజ్వానం పరిగోభిరావృతమింద్రస్య వజ్రం భవిషారథం యజ ఇంద్రస్య వజ్రో మరుతామనీకం మిత్రస్య గర్భో వరుణస్య నాభీః శ్రేమాన్నోజాజింజుషాణో దేవరథ ప్రతిహవ్యాగ్రీభాయ ఉపశ్వాసన పృథివీ ఉనద్యాం పూరుత్రాదే మనుతాం విష్టితం జగత్ సదృభే సజూరింద్రేణ దేవైర్దూరాద్దవీయో అపసేధ శత్రూన్ ఆక్రమ్మరవలమోజో నాధానిష్టనిహితుమితాబాధమానః అపప్రోధదుందుభే దుశ్రాజిత ఇంద్రస్య ముష్టిలసి వీరయస్వ ఆమూలజ ప్రత్యావర్తేమాకేతుమద్దుందుభిర్వావీతి సమస్వర్ణాశ్చరంతి నో నరోస్మాకమింద్రరథినో జయంతు